Book 2
7 19
Unnasi
Unnasi
Tính từ phần 2
Visheshan 2
Visheshan 2
Tôi đang mặc một chiếc áo màu xanh nước biển.
मैंने नीले कपड़े पहने हैं
मैंने नीले कपड़े पहने हैं
Tôi đang mặc một chiếc áo màu đỏ
मैंने लाल कपड़े पहने हैं
मैंने लाल कपड़े पहने हैं
Tôi đang mặc một chiếc áo màu xanh lá cây
मैंने हरे कपड़े पहने हैं
मैंने हरे कपड़े पहने हैं
Tôi mua một cái túi màu đen
मैं काला बैग खरीदता हूँ
मैं काला बैग खरीदती हूँ
Tôi mua một cái túi màu nâu
मैं भूरा बैग खरीदता हूँ
मैं भूरा बैग खरीदती हूँ
Tôi mua một cái túi màu trắng
मैं सफेद बैग खरीदता हूँ
मैं सफेद बैग खरीदती हूँ
Tôi cần một chiếc xe mới
मुझे एक नई गाड़ी चाहिए
मुझे एक नई गाड़ी चाहिए
Tôi cần một chiếc xe nhanh.
मुझे एक अधिक तेज गाड़ी चाहिए.
मुझे एक अधिक तेज गाड़ी चाहिए.
Tôi cần một chiếc xe thoải mái.
मुझे एक आरामदायी गाड़ी चाहिए.
मुझे एक आरामदायी गाड़ी चाहिए.
Một bà già sống ở trên đó.
वहां ऊपर एक बूढ़ी स्त्री रहती है
वहां ऊपर एक बूढ़ी स्त्री रहती है
Một người phụ nữ to béo sống ở trên đó.
वहां ऊपर एक मोटी स्त्री रहती है
वहां ऊपर एक मोटी स्त्री रहती है
Một người phụ nữ tò mò sống ở dưới đó.
वहां नीचे एक जिज्ञासु स्त्री रहती है
वहां नीचे एक जिज्ञासु स्त्री रहती है
Khách của chúng tôi là những người tử tế.
हमारे मेहमान अच्छे लोग थे
हमारे मेहमान अच्छे लोग थे
Khách của chúng tôi là những người lịch sự.
हमारे मेहमान विनम्र लोग थे
हमारे मेहमान विनम्र लोग थे
Khách của chúng tôi là những người thú vị.
हमारे मेहमान दिलचस्प लोग थे
हमारे मेहमान दिलचस्प लोग थे
Tôi có những đứa con đáng yêu.
मेरे बच्चे प्यारे हैं
मेरे बच्चे प्यारे हैं
Nhưng mà người hàng xóm có những đứa con hư đốn.
लेकिन पड़ोसियों के बच्चे ढीठ हैं
लेकिन पड़ोसियों के बच्चे ढीठ हैं
Các con của bạn có ngoan không?
क्या आपके बच्चे आज्ञाकारी हैं
क्या आपके बच्चे आज्ञाकारी हैं